अथ तृतीयोऽध्यायः प्रथमः पादः प्रत्ययः परश्च आद्युदात्तश्च अनुदात्तौ सुप्पितौ गुप्तिच्किद्भ्यः सन् मान्बधदांशान्भ्यो दीर्घश्चाभ्यासस्य धातोः कर्मणः समानकर्तृकादिच्छायाम् वा सुप आत्मनः क्यच् काम्यच्च उपमानादाचारे कर्तुः क्यङ्सलोपश्च भृशादिभ्यो भूव्यच्वेर्लोपश्च हलः लोहितादिडाज्भ्यः क्यष कष्टाय क्रमणे कर्मणो रोमन्थतपोभ्याम् वर्तिचरोः बाष्पोष्मभ्यामुद्वमने शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे सुखादिभ्यः कर्तृवेदनायाम् नमो वरिवश्चित्रङः क्यच् पुच्छभाण्डचीवराण्णिङ् मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् धातोरेकाचो हलादेः क्रियासमभिहारेयम् नित्यम् कौटिल्ये गतौ लुपसदचरजपजभदहदशगृभ्योभावगर्हायाम् सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वच वर्मवर्णचूर्णचुरादिभ्यो णिच् हेतुमति च कण्ड्वादिभ्यो यक् गुपूधूपविच्छिपणिपनिभ्य आयः ऋतेरीयम् कमेर्णिङ् आयादय आर्धधातुके वा सनाद्यन्ताधातवः स्यतासीलृलुटोः सिब्बहुलम् लेटि कास्प्रत्ययादाममन्त्रे लिटि इजादेश्च गुरुमतो नृच्छः दयायासश्च उषविदजागृभ्योऽन्यतरस्याम् भीह्रीभ्रुहुवाम् श्लुवच्च क्रैञ्चानुप्रयुज्यते लिटि विदाम् कुर्वन्त्वित्यन्यतरस्याम् अभ्युत्सादयाम् प्रजनयाञ्चिकयाम् रमयामकः पावयाम् क्रियाद्विदामक्रन्निति छन्दसि च्लिलुङि च्लेस्सि च शल इगुपधादनिटक्सः श्लिष आलिङ्गने न दृशः निःश्रिदृस्रुभ्यः कर्तरि चम् विभाषाधेष्व्योः गुपेश्छन्दसि नोनयति ध्वनयत्येलयत्यर्दयतिभ्यः अस्यति वक्तिख्यातिभ्योऽङ् लिपिसि चिह्वश्च आत्मनेपदेष्वन्यतरस्याम् पुषादिद्युताद्लुदितः परस्मैपदेषु सर्तिशास्त्यर्तिभ्यश्च इरितो वा जृस्तम्भुम्लुचुम्लुचुग्लुचुग्लुचुग्लुञ्चुष्विभ्यश्च कृमृदृरुहिभ्यश्छन्दसि चिण्ते पदः दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् अचः कर्मकर्तरि दुहश्च न रुधः तपोनुतापे च चिन्भावकर्मणोः सार्वधातुके यक् कर्तरि शप् दिवादिभ्यश्यन् वा भ्राशभ्राशभ्रमुक्रमुक्लमुत्रसि त्रुटिलषः यसोऽनुपसर्गात् संयसश्च स्वादिभ्यश्नुः श्रुवश्र च अक्षोऽन्यतरस्याम् तनूकरणे दक्षः तुदादिभ्यश्शः रुधादिभ्यश्नम् तनादिकृभ्य उः धिन्विकृण्व्योर च क्र्यादिभ्यश्ना स्तन्भुस्तुन्भुस्कम्भुस्कुन्भुस्कुञ्भ्यश्नुश्च हलश्नश्शानज्झौ छन्दसि शायजपि व्यत्ययो बहुलम् लिङ्याशिष्यम् कर्मवत् कर्मणा तुल्यक्रियः तपस्तपः कर्मकस्यैव न दुहस्नु नमान्यक्षिणौ कुशिरजोः प्राचांशन् परस्मैपदम् च धातोः तत्रोपपदम् सप्तमीस्थम् कृदतिम् वासरूपोऽस्त्रियाम् कृत्याः तव्यत्तव्यानीयरः अचोयत् पोरदुपधात् शकिसहोश्च गदमदचरयमश्चानुपसर्गे अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु वह्यम् करणम् अर्यस्वामि वैश्ययोः उपसर्या काल्या प्रजने अजर्यम् सङ्गतम् वदस्सु पिक्यप्च भुवो भावे हनस्त च एतिस्तुषांस्वृदृजुषः क्यप रुदुपधाच्चाकृपिचृतेः ईच खनः भृयोसंज्ञायाम् मृजेर्विभाषा राजसूयसूर्यमृषोद्यरुच्यकुप्यकुष्टपच्याव्यथ्याः भिद्योऽध्यौ नदे पुष्यसिद्ध्यौ नक्षत्रे विपूय विनीयजित्या मुञ्जकल्कहलिषो प्रत्यपिभ्याम् ग्रहेश्छन्दसि पदास्वैरिबाह्यापक्ष्येषु च विभाषाकृवृषोः युग्यम् च पत्रे अमावस्यदन्यतरस्याम् छन्दसि निष्टर्क्य देवहूय प्रणीयोन्नीयोच्छिष्य मर्यस्तर्याध्वर्यखन्यखान्य देवयज्ञा पृच्छ प्रतिशीव्य ब्रह्मवाद्यभाव्यस्ताव्योपचाय्य पृडानि रुहलोऽर्ण्यत् ओरावश्यके आसुयुवपिरपिलपित्रपिचमश्च आनाय्यो नित्ये प्रणाय्यो सम्मतौ पाय्य सान्नाय्य निकाय्य धाय्य मानहविर्निवास सामिधेनीषु क्रतौ कुण्डपाय्य सञ्चाय्यौ अग्नौ परिचाय्योपचाय्य समूह्याः चित्याग्निचित्ये च न्वुल्तृचौ नन्दिग्रहिपचादिभ्योऽल्युणिन्यचः इगुपधज्ञा प्रीकिरः कः आतश्चोपसर्गे पाघ्राध्माधेर्दृशः अनुपसर्गाल्लिम्पविन्दधारिपारि वेद्युदेजि चेति साति साहिभ्यश्च ददाति दधात्योर्विभाषा ज्वलिति कसन्तेभ्यो णः स्याद्वधासृसं स्रवतीणवसा वह्रलिहश्लिषाश्वसश्च दुन्योरनुपसर्गे विभाषाग्रहः गेहेकः शिल्पिनिष्वन् गस्थकन् न्युट्च हश्च व्रीहिकालयोः प्रसुल्वः समभिहारेवुन् आशिषि च इति प्रथमः पादः